नमस्तिवाभ्यां नवजौवनाभ्यां परस्परात्मिष्ट वपुरधराभ्यां नगिन्नकन्यावृषचेतनाभ्यां नमो नमः शङ्कर पार्वतीभ्यां नमस्तिवाभ्यां सरस्वत्सवाभ्यां नमस्कृताविश्च वरप्रदाभ्यां नारायणेनार्जितपादुकाभ्यां नमो नमः शङ्कर पार्वतीभ्यां नमस्तिवाभ्यां वृषभानाभ्यां विरिञ्चिविष्णुन्द्रसुपूजिताभ्यां विभूतिपातिरविलोपनाभ्यां नमो नमः शङ्कर पार्वतीभ्यां नमस्तिवाभ्यां जगदीश्वराभ्यां जगत्पतीभ्यां जयदिग्राभ्यां गङ्गारिमध्यैरभिवन्दिताभ्यां नमो नमः शङ्कर पार्वतीभ्यां नमस्तिवाभ्यां परमौषधाभ्यां पञ्चाक्षरी पञ्जररञ्जिताभ्यां प्रपञ्चसृष्टिस्तुतिसंहृताभ्यां नमो नमः शङ्कर पार्वतीभ्यां नमस्तिवाभ्यां मधुसुन्दराभ्यां मत्सन्तमासच्चरिदम्बुजाभ्यां अशेषलोकैकविशङ्कराभ्यां नमो नमः शङ्कर पार्वतीभ्यां नमस्तिवाभ्यां कलुनाशनाभ्यां कङ्कालकल्याणवपुरधराभ्यां कैलासशैलस्थितदेवताभ्यां नमो नमः शङ्कर पार्वतीभ्यां नमस्तिवाभ्यां वसुवापाभ्यां अशेषलोकैकविशेषिताभ्यां अकुण्ठिताभ्यां स्मृतिसंवृताभ्यां नमो नमः शङ्कर पार्वतीभ्यां नमस्तिवाभ्यां रथवाहनाभ्यां रविन्दुवैश्वानरलोचनाभ्यां प्राकाशशङ्कावमुखाम्बुजाभ्यां नमो नमः शङ्कर पार्वतीभ्यां नमस्तिवाभ्यां जटिलम्बराभ्यां जरामृतीर्भ्यां च विवर्जिताभ्यां जनार्दनाद्भुतभवपूजिताभ्यां नमो नमः शङ्कर पार्वतीभ्यां नमस्तिवाभ्यां विषमेश्वराभ्यां दिल्लोत्सदा मल्लिकदामभृभ्यां सुभावती शान्तवतीश्वराभ्यां नमो नमः शङ्कर पार्वतीभ्यां नमस्तिवाभ्यां पशुपालकाभ्यां जगत्रयीरक्षणभर्तृभ्यां समस्तदेवासुरपूजिताभ्यां नमो नमः शङ्कर पार्वतीभ्यां स्तोत्रं त्रिसन्धं शिवपार्वतीभ्यां भक्त्यापदे द्वादशकर्णरेय सर्वसौभाग्यफलानि भुङ्क्ते सतायुरन्ते शिवलोकमेति ॐ तत्सत् श्रीउमामहेश्वरार्पणम् अस्तु।